एष रेडियो नेपालः सम्प्रति समाचारः श्रूयन्ताम् प्रवाचकः उपेन्द्र दाहालः। सत्ता गठबन्धनस्य उच्चस्तरीय राजनीतिक संयन्त्रस्य उपवेशे देशस्य सामयिक राजनीतिक विषये विमृष्टमस्ति। बाल्वाटार वर्तिनी प्रधानमन्त्री निवासे ह्यसायम् उपविष्टे उपवेशे पश्चात्तन समये विकसितस्य राजनैतिक घटनाक्रमस्य बहि आगताया क्रिया प्रतिक्रियायाश्च विषये समीक्षा सम्भूतास्ति। उपवेशस्य पश्चात् संचारकर्मिभ्यः ज्ञापयन् गृहमन्त्री रमेश लेखकः सामयिक नियमित विषयेषु उपवेशे अनुकूलं विमर्शनम् अभूत् इति असूचयत्। तदवसरे गृहमन्त्री लेखकः बहि प्रसिद्ध समाचारस्य इव गठबन्धने सत्ताया संचालने च कथं विदापि समस्या नास्तीति समस्पष्टयत्। गृहमन्त्री लेखकः शिक्षकाणां याचनायाः शीघ्रं सम्बोधनाय सर्वकारः गभीरोऽस्ति। संसदः आगामिनः अधिवेशनात् शिक्षा सम्बद्धं विधेयकं निष्कर्षे प्राप्स्यतीति च विश्वासं व्यक्तवान्। उपवेशे प्रधानमन्त्री नेकपा एमाले दलस्य अध्यक्षश्च केपी शर्मा ओली, नेपाली कांग्रेस दलस्य सभापतिः शेरबहादुर देउवा, राजनीतिक संयन्त्रस्य अन्य नेतारश्च सहभागिनः आसन्। तत्र एमाले दलात् महासचिव शंकर पोखरेल, अर्थमन्त्री विष्णु पौडेल, एमाले दलस्य वरिष्ठ उपाध्यक्ष ईश्वर पोखरेल, उपमहासचिव प्रधानमन्त्रिणा प्रमुख राजनीतिक परामर्शदाता विष्णु रिमालश्च सहभागिनः आसन्। एवमेव कांग्रेस दलस्य पक्षतः गृहमन्त्री लेखकः परराष्ट्रमन्त्री डाक्टर आरजू राणा देउवा च सहभागिनः आस्ताम। राष्ट्रपतिना रामचन्द्र पौडेलेन संघीय संसदः अधिवेशनम् अस्यैव वैशाखस्य द्वादश दिवसाय आहूतमस्ति। मन्त्रिपरिषदः उपवेशेन अस्यैव वैशाख मासस्य द्वादश दिवसाय संसदः अधिवेशनम् आह्वातुम् राष्ट्रपतेः समक्षम् परामर्शनानन्तरम् राष्ट्रपतिना वैशाखस्य द्वादश दिवसस्य एकवादनाय अधिवेशनम् आहूतमस्तीति राष्ट्रपतेः कार्यालयस्य प्रवक्त्रा शैलजा रेग्मी भट्टराई इत्यनया ह्यः प्रकाशितायाम् विज्ञप्तौ उल्लिखितम् वर्तते। सर्वकारेण आन्दोलनरत शिक्षकाणां याचना उचितरूपेण सम्बोधयिष्यते इति उक्त्वा प्रदर्शनस्य कार्यं निरद्य स्वस्य कार्येषु प्रत्यावर्तितुं सर्वे शिक्षकाः आहूताः वर्तन्ते। परह्यस्तन दिवसस्य मन्त्रिपरिषद उपवेशस्य निर्णयानि ह्य मन्त्रालये सार्वजनिक कुर्वाणः संचार सूचना प्रविधि मन्त्री पृथ्वी सुब्बा गुरूङ विभिन्नाः याचनाः प्रस्तुत्य शिक्षकैः विहितं प्रदर्शनं प्रति गभीरं ध्यानाकर्षणं सम्भूतमस्ति। शिक्षकैः उत्थापिताः याचनाः यथोचितरूपेण सर्वकारेण सम्बोधयिष्यन्ते इति च प्रावोचत्। सर्वकारेण विद्यालय शिक्षा विधेयकस्य पारितीकरणस्य प्रयोजनाय संसदः अधिवेशनम् आहूतमस्तीति चर्चयन् संचार मन्त्री गुरूङ शैक्षिक सत्रस्य महत्वपूर्ण कार्याणां संवेदनशीलतां विचार्य विद्यालयान् प्रत्यावर्तितुं शिक्षकान् अनुरुणत। मन्त्रिपरिषदः उपवेशेन अभौतिक सांस्कृतिक सम्पदः संरक्षणस्य सन्दर्भे व्यवस्थात्वं निर्मितं विधेयकं चलचित्र सम्बद्धं विधिं संशोधयितुं एकीकर्तुं च निर्मितं विधेयकं सर्वकारीय भूम्युपयोग सम्बद्ध प्रथम संशोधन कार्यनीति उड्डयन सेवा व्यवस्थापन नियमावलीं च स्वीकर्तुं निर्णीतमस्तीति संचार मन्त्री गुरूङ असूचयत्। प्रधानमन्त्रिणः चिकित्सा शिक्षायोगस्य अध्यक्षस्य च केपी शर्मा ओलिनः अध्यक्षतायां ह्य उपविष्टेन चिकित्सा शिक्षायोगस्य अष्टादशेन उपवेशेन नैज चिकित्सा महाविद्यालयेषु एमबीबीएस कक्षायाः बीडीएस कक्षायाश्च स्थानानां संख्यायाः शुल्क संरचनायाश्च पुनरावलोकनाय एकादश सदस्यीयं कार्यदलं संगठितं वर्तते। सीमा प्रसादवर्तिनी प्रधानमन्त्री मन्त्रिपरिषद कार्यालये उपविष्टेन दशदिनानाम् अभ्यन्तरे परामर्शनं प्रस्तुतुं शिक्षा विज्ञान प्रविधि मन्त्रालयस्य सचिवस्य डाक्टर दीपक काफ्लेविदस्य संयोजकत्वे नवसदस्यीयं कार्यदलं संगठितमस्ति। सर्वोच्च न्यायालयेन काभ्रे पलाञ्चोक जनपदस्य पाँचखाल नगरपालिकायां सञ्चाल्यमानं इष्टिकोद्योगं पिधापयितुम् आदिष्टमस्ति। न्यायालयेन पर्यावरणे जनस्वास्थ्ये च गभीर प्रभाव सृष्टोस्तीति निश्चित्य तत्रत्यान् इष्टिकोद्योगान् पिधापयितुम् आदिष्टम् वर्तते। स्थानीयैः जनैः पाँचखाल नगरपालिकाम् वनवातावरण मन्त्रालयम् शिक्षा मन्त्रालयम् पुरातत्व विभागम् च विवक्षिणः कृत्वा षट्सप्तत्युत्तर द्विसहस्रतमस्य विक्रमवर्षस्य पौषमासस्य चतुर्दशे दिवसे सर्वोच्च न्यायालये आदेशाभियाचन निवेदनम् पञ्जीकारितम् आसीत्। सम्प्रति काभ्रे जनपदस्य पाँचखाल क्षेत्रे अष्टौ इष्टिकोद्योगाः सञ्चाल्यमानाः वर्तन्ते। गतश्विन मासस्य द्वितीय सप्ताहे रोशीनद्याः जलविप्लवेन क्षतिग्रस्तस्य बीपी राजमार्गस्य पुनर्निर्माणं खण्डचतुष्टये विधीयते। राजमार्गस्य अन्तर्गतं क्षतिग्रस्तस्य काभ्रे जनपदस्य नमोबुद्ध नगरपालिकायाः चौडी डाँडा स्थानात् सिन्धुली जनपदस्य बर्खे खोला स्थान पार्यन्तिकस्य मार्गस्य खण्डचतुष्टये पुनर्निर्माणं करिष्यते इति भक्तपुरवर्तिना मार्ग महाशाखा कार्यालयेन ज्ञापितमस्ति। क्षतिग्रस्तेषु मार्गखण्डेषु नेपाल सर्वकारस्य व्ययेन खण्डत्रयस्य पुनर्निर्माणं विधास्यते। एकखण्डस्य पुनर्निर्माणाय जापान सर्वकारः अनुरुद्धोऽस्ति इति च कार्यालयेन सूचितमस्ति। नेकपा माओवादी केन्द्रेण सहायक हुलाक मार्ग केन्द्रितं तराई मधेश जागरण अभियानम् इह पुनः प्रारब्धमस्ति। अभियानस्य अन्तर्गतं इह दलस्य अध्यक्ष पुष्पकमल दाहाल प्रचण्ड नवलपरासी जनपदस्य बर्दघाट स्थाने हुतात्म परिवारैः शुभेच्छुकैश्च सह मेलवार्ता विमर्शनं च अकरोत्। जनतया सह माओवादी दलम् इति समाघोषेण प्रारब्धाय तराई मधेश जागरणाभियानाय नैरन्तर्यं प्रदाय जनतायाः समस्याः ज्ञायन्ते समाधानाय आवश्यक प्रयासश्च करिष्यते इति माओवादी केन्द्रेण ज्ञापितमस्ति।